अथ सप्तमः सर्गः। सवेश्मजालम् बलवान् ददर्श व्यासक्तवैदूर्यसुवर्णजालम् यथा महत्प्रावृषिमेघजालम् विद्युत्पिनद्धम् स विहङ्गजालम् निवेशनानाम् विविधाश्च शालाः प्रधानशङ्खायुधचापशालाः मनोहराश्चापि पुनर्विशाला ददर्शवेश्माद्रिषु चन्द्रशालाः गृहाणि नानावसुराजितानि देवासुरैश्चापि सुपूजितानि सर्वैश्च दोषैः परिवर्जितानि कपिर्ददर्शस्वबलार्जितानि तानि प्रयत्नाभिसमाहितानि मयेन साक्षादिव निर्मितानि महीतले सर्वगुणोत्तराणि ददर्शलङ्काधिपतेर्गृहाणि ततो ददर्शोच्छ्रितमेघरूपम् मनोहरम् काञ्चन चारुरूपम् रक्षोऽधिपस्यात्मबलानुरूपम् गृहोत्तमम् ह्यप्रतिरूपरूपम् महीतले स्वर्गमिव प्रकीर्णम् श्रियाज्ज्वलन्तम् बहुरत्नकीर्णम् नानातरूणाम् कुसुमावकीर्णम् गिरेरिवाग्रम् रजसावकीर्णम् नारी प्रवेकैरिव दीप्यमानम् तडिद्भिरम्बोधरमर्च्यमानम् हंस प्रवेकैरिव बाह्यमानम् श्रियायुतम् खेसु कृतम् विमानम् यथा नगाग्रम् बहुधातु चित्रम् यथा नभश्च ग्रहचन्द्रचित्रम् ददर्श युक्तीकृतचारुमेघचित्रम् विमानम् बहुरत्नचित्रम् महीकृता पर्वतराजिपूर्णा शैलाः कृता वृक्षवितानपूर्णाः वृक्षाः कृताः पुष्पवितानपूर्णाः पुष्पम् कृतम् केसरपत्रपूर्णम् कृतानि वेश्माणि च पाण्डुराणि तथा सुपुष्पाण्यपि पुष्कराणि पुनश्च पद्मानि सकेसराणि वनानि चित्राणि सरोवराणि पुष्पाह्वयम् नाम विराजमानम् रत्नप्रभाभिश्च विघूर्णमानम् वेश्मोत्तमानामपि चोच्चमानम् महागपिस्तत्र महाविमानम् कृताश्च वैदूर्यमया विहङ्गारूप्यप्रवालैश्च तथा विहङ्गाः चित्राश्च नानावसुभिर्भुजङ्गा जात्यानुरूपास्तु रगाशुभाङ्गाः प्रवालजाम्बूनदपुष्पपक्षाः सलीलमावर्जितजिह्मपक्षाः कामस्य साक्षादिव भान्तिपक्षाः कृता विहङ्गाः सुमुखाः सुपक्षाः नियुज्यमानाश्च गजाः सुहस्ताः सकेसराश्चोत्पलपत्रहस्ताः बभूव देवी च कृता सुहस्ता लक्ष्मीस्तथा पद्मिनी पद्महस्ता इतीव तद्गृहमभिगम्य शोभनम् स विस्मयो नगमिव चारुकन्दरम् पुनश्च तत्परमसुगन्धिसुन्दरम् हिमात्यये नगमिव चारुकन्दरम् ततः स तान् कपिरभिपत्य पूजिताम् चरन्पुरीम् दशमुखबाहुपालिताम् अदृश्यताम् जनकसुताम् सुपूजिताम् सुदुःखिताम् पतिगुणवेगनिर्जिताम् ततस्तदा बहुविधभावितात्मनः कृतात्मनो जनकसुताम् सुवर्त्मनः अपश्यतो भवदति दुःखितम् मनः स चक्षुषः प्रविचरतो महात्मनः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तमः सर्गः।